इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अभिव्यक्तवान् यत् भूटान नेतृत्वयुतया तस्य वार्तया भारत भूटान देशयोः मैत्री सम्बन्धे इतोऽपि सुदृढता आगमिष्यति। श्रीमोदिना स्वीय भूटान देशीय यात्रा सार्थिकी कथिता, यतोहि यात्रावधौ असौ तत्रस्थस्य राज्ञा जिग्मेखेसर नामग्याल वांगचुक इत्यनेन प्रधानमन्त्रिणा च शेरिंग तोब्गे इत्यनेन सह मेलनस्य अवसरं सम्प्राप्तवान्। भूटानस्य द्विदिवसीय यात्रानन्तरं प्रधानमन्त्री ह्यः मध्याहे भारतं प्रत्यावर्तितवान्। प्रधानमन्त्रिणः गमनवेला समये भूटानस्य प्रधानमन्त्री राजा च विमानपत्तनस्थानके श्रीमोदिना सह आस्ताम्। एकस्मिन् सामाजिक सन्देशपटले प्रधानमन्त्री मोदी लिखितवान् यत् असौ भूटान देशस्य राज्ञः विशिष्ट व्यवहारेण सम्मानितम् अनुभवति। एतदतिरिच्य अनेन ऑर्डर ऑफ द ड्रुक ग्याल्पो इत्यस्य सम्माने आभारः प्रकटितः। विदेशमन्त्री डॉ एस जयशंकरः अरुणाचल प्रदेश राज्ये चीन देशस्य अधिकारित्वं विनोदयुतं कथितवान्। असौ सबलं प्रत्यपादयत् यत् अरुणाचल प्रदेशः भारतस्य अंगं वर्तते। एतदर्थं नैव यतोहि केनापि अन्येन देशेन कथ्यते इति। सिंगापुरनगरे इंस्टीट्यूट ऑफ साउथ एशियन स्टडीज इत्यस्य कार्यक्रमे प्रवदन् डॉ जयशंकरः प्रोदीरितवान् यत् भारतम् अस्मिन् प्रकरणे पूर्वमेव स्पष्टं तर्कयुतं च अस्ति। असौ कथितवान् यत् चीनदेशेन पूर्वमेव नैकवारं एतादृशम् अधिकारित्वं प्रख्यापितम् आसीत्। पाकिस्तानं निध्याय डॉ जयशंकरः अस्मिन् प्रसंगे बलं प्रदत्तवान् यत् भारतेन आतंकवादप्रकरणं नैव सहते। विदेशमन्त्रिणा निगदितं यत् प्रत्येकं देशः वांछति यत् तस्य प्रतिवेशिनः देशाः स्थिराः भवितव्याः, परञ्च एतादृशे प्रकरणे भारतं दुर्भाग्यशाली वर्तते इति। चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य लोकसभा निर्वाचनं सप्तचरणेषु सम्पूर्णदेशेषु भविष्यति इति। उत्तरप्रदेशः यत्र देशस्य अधिकांशतः जनसंख्या अस्ति अपि च लोकसभासनानि अपि बृहत्तमायां संख्यायां सन्ति तत्र सप्तचरणेष्वपि निर्वाचनं भविष्यति इति। भारतीय जनता पार्टीति दलस्य नेता अनुराग सिंह ठाकुरः दिल्ल्याः मुख्यमन्त्रिणे अरविन्द केजरीवाले मद्यनीति प्रवञ्चनाप्रकरणे भ्रष्टाचारस्य मुख्य आरोपिणः आरोपं प्रख्यापितवान्। वार्ताहरान् सम्बोधयन् श्री ठाकुरः कथितवान् यत् साम्प्रतं यावत् केजरीवालेन मुख्यमन्त्रीपदात् त्यागपत्रमपि न प्रदत्तम्। भाजपेति दलस्य अस्य नेता प्रावोचत् यत् आपदलस्य नेता कथितवान् आसीत् यत् शासनारूढस्य अनन्तरं दलमिदं पंजाबराज्ये मद्यपानं विरुध्य अभियानं प्रचालयिष्यति। श्रीठाकुरः अग्रे प्रत्यपादयत् यत् विषाक्तमद्यपानैः संगरूरक्षेत्रे विंशत्यधिकाः जनाः मृत्युम् उपगताः सन्ति। कांग्रेसदलेन स्वकीय उत्तरप्रदेश संभागस्य प्रमुख अजयरायः वाराणसी लोकसभासनात् प्रधानमन्त्रिणं मोदिनं विरुध्य निर्वाचनसमराङ्गणे अवतारितः। कांग्रेसदलस्य वरिष्ठनेता दिग्विजयसिंहः मध्यप्रदेशस्य राजगढ़ लोकसभाक्षेत्रात् स्पर्धिष्यति। आईपीएल इति क्रिकेट मालिकायां कोलकातायां ईडन गार्डन क्रीडांगणे कोलकाता नाइट राइडर्स दलेन सनराइजर्स हैदराबाद दलं चतुर्भिः धावनांकैः पराजितम्। अद्य जयपुरनगरे सार्धत्रिवादने राजस्थान रॉयल्स दलं लखनऊ सुपर जायंट्स दलं सम्मुखीकरिष्यति इति वार्ताः।